सर्वभूतेषु चेतनेत्यभिधीयते नमस्तस्यै नमो नमः या देवि सर्वभूतेषु बुद्धिरूपं संस्थिता कृष्णरूपे संस्थिता